इयम् आकाशवाणी। सम्प्रति वार्ताः श्रूयन्ताम्। प्रवाचकः कृष्णप्रसादोपाध्यायः। आदौ मुख्यवार्ताः। प्रधानमन्त्री नरेन्द्रमोदी G7 शिखरसम्मेलने भागं ग्रहीतुं केनडादेशं प्रति गमिष्यति। ऊर्जा सुरक्षायाः प्रौद्योगिक्याश्च वैश्विक समस्यानां विषये सः तत्र चर्चां करिष्यति। G7 राष्ट्राणां नेतारः इज़राइल देशस्य आत्मरक्षायाः अधिकारः अस्तीति सुनिश्चीय पश्चिम एशिया देशे शान्तिं स्थिरतां चानेतुं प्रतिबद्धतां प्रकटितवन्तः। अमेरिका देशस्य राष्ट्रपतिः डोनाल्ड ट्रम्पः अस्मिन् क्षेत्रे अद्यतनपरिवर्तनानां मध्ये शिखरसम्मेलनात् पूर्वमेव तत्स्थानं त्यक्तवान्। विदेश मन्त्रालयेन ईरान इज़राइल देशयोः वर्तमानस्थित्योः निरीक्षणार्थं भारतीय नागरिकाणां साहाय्यार्थं च नियन्त्रणकक्षस्य स्थापना कृतास्ति। रेलमन्त्री अश्विनी वैष्णवः अद्य भारतस्य बृहत्तमस्य गतिशक्ति मल्टी मॉडल कार्गो टर्मिनल इत्यस्य उद्घाटनं हरियाणायाः मानेसरेति क्षेत्रे अकरोत्। भारतर्तुविज्ञानविभागेन अद्य सौराष्ट्रकक्षक्षेत्रयोः अतिवृष्टेः पूर्वानुमानं प्रकटितमस्ति। अपि च FIH इत्यस्य प्रो लीग् इत्यस्यां हॉकी क्रीडायां भारतीय महिलादलम् अद्य लंदन नगरस्य ली व्याली हॉकी एंड टेनिस इति क्रीडाङ्गणे अर्जेंटीना देशं विरुध्य क्रीडति। अथ वार्ताः विस्तरेण। अद्य सायंकाले कनाडादेशस्य कनानास्कीस नगरे G7 शिखरसम्मेलने प्रधानमन्त्री नरेन्द्रमोदी भागं ग्रहीष्यति। कैलग्री विमानस्थानके सम्प्राप्तौ तस्य हार्दिकं स्वागतम् अभवत्। प्रधानमन्त्री ऊर्जा सुरक्षा प्रौद्योगिक्याः आधारभूतसंरचनायाः निवेशस्य च विषये चर्चायां G7 इत्यत्र भागं भजिष्यति। येन परिवर्तनशीलविश्वस्य उपलब्धता सामर्थ्यञ्च सुनिश्चिता भवेत्। शिखरसम्मेलनावधौ प्रधानमन्त्री G7 देशानां नेतृभिः सह विचारविनिमयं करिष्यति। कनाडादेशस्य प्रधानमन्त्री मार्क कार्नी इत्यनेन सह विभिन्न द्विपक्षीय विषयेषु उपवेशनं सह विधास्यति। सः अन्यैः आमन्त्रितैः देशैः अन्ताराष्ट्रियसङ्घटनप्रमुखैश्च सह महत्त्वपूर्णवैश्विकविषयेषु विचाराणाम् आदानप्रदानं करिष्यति। दशकेऽस्मिन् प्रधानमन्त्रिणः मोदिनः कनाडादेशस्य प्रथमा यात्रा अस्ति। 1975 वर्षे अन्तिमयात्रावधौ द्विपक्षीयसम्बन्धाः सामरिकसहभागितायाः स्तरं च संवर्धितमासीत्। अमेरिकादेशस्य राष्ट्रपतिः डोनाल्ड ट्रम्पः G7 शिखरसम्मेलनात् पूर्वमेव निर्गत्य इज़राइल ईरान देशयोर्मध्ये तीव्रसङ्घर्षस्य मध्ये वाशिङ्ग्टन नगरं प्राप्तवान्। अत्रान्तरे विश्वनेतृभिः पश्चिम एशियादेशे डी एस्केलेशन इत्यस्य आग्रहाय संयुक्तवक्तव्यस्य प्रकाशनात् कतिपयहोराणामनन्तरम् एव एतत् कार्यम् अभवत्। ईरान इज़राइल देशयोः वर्तमानस्थितौ विदेशमन्त्रालयेन स्थित्याः निरीक्षणार्थं भारतीय नागरिकाणां सहायार्थञ्च 7-दिवसात्मकस्य अहोरात्र्योः नियन्त्रणकक्षस्य स्थापना कृतास्ति। बहुविध सहायिका टोल फ्री इति संख्या च प्रकाशितास्ति। संख्यास्ति 1800117977 इति। अनेनैव सह ईमेल व्हाट्सएप आदीनामपि व्यवस्था विहितास्ति। रेलमन्त्री अश्विनी वैष्णवः अद्य भारतस्य बृहत्तमस्य गतिशक्ति मल्टी मॉडल कार्गो टर्मिनल इत्यस्य उद्घाटनं हरियाणायाः मानेसरेति क्षेत्रे अकरोत्। अस्मिन् अवसरे श्रीवैष्णवः अधोरेखितवान् यत् 45 एकड़ इति परिमितेषु क्षेत्रेषु विस्तृते कार्गो टर्मिनल इत्यत्र 4.5 लाख परिमितानां वाहनानां वहनक्षमता अस्ति। सः अवदत् यत् 88 लाख परिमितानि मल्टी मॉडल कार्गो टर्मिनल्स् इति अधुना सिद्धानि सन्ति
एक बड़ा चेंज आया है गति शक्ति कार्गो टर्मिनल 2021 में करीब दिसंबर के महीने में रिफॉर्म्स किए गए और पूरे प्रोसेस को इतना सिंप्लीफाई किया कि आज इतने शॉर्ट टाइम फ्रेम में 108 मल्टी मॉडल कार्गो टर्मिनल बन के रेडी हो चुके हैं और आज जिस टर्मिनल में हम लोग हैं वो वन ऑफ द लार्जेस्ट है 45 एकड़ जमीन में बना है और करीब 4.5 लाख कार को यहाँ से कैरी करने की कैपेसिटी है।
संस्कृत वार्तायाः संस्करणमिदं इदानीम् आकाशवाणीतः प्रसार्यते। सममेव कार्यक्रमोऽयम् आकाशवाण्याः www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर मोबाइल ऐप इत्यत्र अपि उपलब्धो भविष्यति। भारतर्तु विज्ञान विभागेन अद्य सौराष्ट्र कच्छ क्षेत्रयोः अतिवृष्टेः पूर्वानुमानं प्रकटितमस्ति। देशस्य अन्येषु केषुचित् भागेषु यथा सौराष्ट्र कच्छ पश्चिमबंगाल ओडिशा बिहार झारखण्ड राज्येषु आगामिषु 24 होरासु तीव्रवज्रपातैः सह प्रचण्डवृष्टिः निरन्तरं भविष्यतीति अनुमितमस्ति। विभागेनोक्तं यत् बिहारे झारखण्डे मध्यप्रदेशे राजस्थाने च अद्य वज्रपातस्य विद्युद्योतनस्य च संभावना वर्तते। अद्य अपराह्णे दिल्लीक्षेत्रे वर्षा अभवत् येन ग्रीष्मस्य तप्तातापे न्यूनता आगता। नोएडा गुरुग्रामनगरयोः केषुचित् भागेषु तीव्रवायुना सह प्रचण्डवृष्टिः अभवत्। ऋतुविभागेन शुक्रवासरपर्यन्तं हरियाणा पंजाब उत्तरप्रदेशैः सह दिल्ली NCR इति क्षेत्रे झंझावातं समेत्य लघुतः मध्यमवृष्टेः पूर्वानुमानं प्रकटितमस्ति। सद्यः एव जातायाम् अहमदाबाद विमानदुर्घटनायां प्रायः 260% यावत् मृतानां DNA इति परीक्षणं सफलतापूर्वकं जातम्। गुजरातस्य गृहराज्यमन्त्री हर्ष संघवी अद्य सोशल मीडिया इत्यत्र लिखिते सन्देशे सूचनां प्रदत्तवान्। राज्यसर्वकारः केन्द्रीयसंस्थाभिः सह मिलित्वा न्यायिकविधि औपचारिकतां द्रुततया कुर्वन् अस्ति। सम्प्रति एयर इण्डिया इत्यस्य अहमदाबादतः लन्दननगरं प्रति घातकविमानदुर्घटनानन्तरं नूतनेन सङ्केतेन सह विमानसेवा समारब्धा, परञ्च अद्य विमानस्य अनुपलब्धतायाः कारणात् यात्रा स्थगिता। उपराष्ट्रपतिः जगदीप धनखड़ः अद्य अवदत् यत् विकसित भारतं केवलं स्वप्नः एव न अपितु एकं निश्चितं गन्तव्यमस्ति, यद्धि सुदृढ़ ज्ञानार्थ व्यवस्थया संचालितमस्ति। पाण्डिचेरी विश्वविद्यालयस्य छात्रैः संकाय सदस्यैः कर्मचारिभिश्च सह संवादं कुर्वन् सः देशं विकसित भारतस्य दिशि नयनाय प्रमुखहितधारकत्वेन यूनां छात्राणां च महत्वपूर्णां भूमिकां प्रकाशितवान्। शिक्षायाः महत्वं प्रकाशयन् उपराष्ट्रपतिः अवदत् यत् शिक्षा एका महती समानतायाः कारिका अस्ति या असमानतां नष्टं करोति। श्रीजगदीप धनखड़ः भारतस्य पारम्परिकगुरुकुलव्यवस्थायाम् आधारभूतमूल्यानां पुनरागमनस्य आग्रहपूर्वकं शिक्षायाः वस्तुकरणं व्यवसायिकीकरणञ्च विरुध्य सञ्चेतना अपि अददात्। ईरान देशस्य तेहरान नगरे भारतीय दूतावासेन भारतीय छात्राः सुरक्षा कारणत्वात् नगरात् बहिः नीताः सन्ति। विदेश मन्त्रालयः एकस्मिन् वक्तव्ये अवदत् यत् अन्ये निवासिनः ये परिवहन विषये स्वावलम्बिनः सन्ति ते अपि परिवर्तमानां स्थितिं दृष्ट्वा नगरात् बहिः गन्तुं सूचिताः सन्ति। केचन भारतीयाः आर्मेनिया देशस्य सीमायाम् ईरान देशात् निर्गन्तुं सुलभतां प्राप्तवन्तः। भारतीयदूतावासः सर्वविधसम्भवसहायतां प्रदातुं समुदायेन सह निरन्तरं सम्पर्के अस्ति। इज़राइल देशस्य सेना कथयति यत् रात्रौ ईरानदेशात् प्रेषितान् 30 ड्रोन्स् इत्यस्य आक्रमणम् अवरोधितवतीति। एतावत्पर्यन्तम् आक्रमणं न्यूनातिन्यूनं प्रभावपूर्णम् अस्तीति सेनया प्रोक्तम्। ICC इत्यस्य महिलानाम् एकदिवसीय क्रिकेट क्रीडायां भारतस्य स्मृति मन्धाना 6 वर्षानन्तरं पुनः प्रथमं स्थानं प्राप्तवती। 28-वर्षीया एषा क्रीडिका 27.7 रेटिंग इति अंकैः सह दक्षिण अफ्रीका देशस्य लौरा बोलवाइट इत्येनाम् अतिक्रम्य शीर्षस्थानम् अवाप्नोत्। अन्ते FIH इत्यस्य प्रो लीग इत्यस्यां हॉकी क्रीडायां भारतीय महिला दलम् अद्य लंदन नगरस्य ली व्याली हॉकी एंड टेनिस इति क्रीडांगणे अर्जेंटीना देशं विरुद्ध्य क्रीडति। सम्प्रति नवांकैः सह सप्तमे स्थाने स्थितं भारतीय दलम् अंकतालिकायां द्वितीय स्थान स्थितेन अर्जेंटीना देशस्य दलेन सह कठिन संघर्षम् अपेक्षते इति वार्ताः।